अथ चतुर्दशोऽध्यायः श्रीभगवान् उवाच परं भूय प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् यज्ज्ञात्वा मुनय सर्वे परं सिद्धिम् इतो गतः इदं ज्ञानम् उपश्रित्य मम साधर्म्यम् आगतः सर्गेऽपि नोपजायन्ते फलायेन व्यथन्ति च मम यो निर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् सम्भव सर्वभूतानां ततो भवति भारत सर्वयोनि सुखौन्तेय मूर्तय सम्भवन्ति यः तासां ब्रह्म महद्योनिर् अहं बीजप्रदपिता सत्वं रजस्तम इति गुणा प्रकृति सम्भवः निभध्नन्ति महाबाहो देहि देहिनम् अव्ययम् तत्र सत्वं निर्मलत्वात् प्रकाशकम् अमामयम् सुखसङ्गेन बध्नाति ज्ञानसङ्गेन च नगा राजोरागात्मकं विधि तृष्णासङ्गसमुद्भवम् तन्निभत्नाति कौन्तेय कर्मसङ्गेन देहिनम् तमस्त्वज्ञानजं विधि मोहनं सर्वदेहिनां प्रमादालस्य निद्राभिस्तन्निभत्नाति भारत सत्वं सुखे सञ्जयति राजकर्मणि भारत ज्ञानम् आवृत्य तुतम प्रमादे सञ्जयत्युत राजस्तमश्चभिभूय सत्वं भवति भारत राजसत्वं तमश्चैव तमसत्वं रजस्तथा सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते ज्ञानं यद्धा विद्याद् विवृद्धं सत्वम् इत्युत लोभप्रवृत्तिरारम्भ कर्मणाम् अश्चमस्पृहा राजस्येथानि जायन्ते विवृद्धे भरतशभा अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव च तमस्येथानि जायन्ते विवृद्धे कुरु नन्दन यदा सत्त्वे प्रवृद्धेतु प्रलयं याति देहभृत् तदोत्तम विधां लोकान् अमलान् प्रतिपद्यते रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते तथा फलिनस्तमसि मूढयोनिषु जायते कर्म न सुकृतस्यायुः सात्विकं निर्मलं फलं रजसस्थु फलं दुःखम् अज्ञानं तमसफलं सत्वात् सञ्जायते ज्ञानं रजसो लोभ एव च प्रमादमोहौ तमसो भवतो ज्ञानम् एव च ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसः जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसः नान्यं गुणेभ्यकर्तारं यदा द्रष्टानुपश्यति गुणेभ्यश्च परं वेति मद्भावं सोऽधिगच्छति गुणम् एतान् अतीत्यत्रीन् देहि देह समुद्भवान् जन्म मृत्यु जरा दुःखैर्विमुक्तो मृतम् अश्नुते अर्जुन उवाच खैर्लिङ्गैस्त्रीन् गुणान् एतान् अतीतो भवति प्रभो किम् आचारः कथं चैतां स्त्रीन् गुणान् अतिवर्तते श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च moham eva cha pandava na dveshti sampravritani na nivritani kankshati udasina vadasino gunairyo na vichalyate gunavartanta ityevam yova tishtati ningate samadukha sukha swastaha samaloshthashma kanchanaha tulya priya priyodhiras tulya nindatma samstutihi manapa mana yostulyas tulyo mitrari pakshayo sarvarambha parityagi gunatita sa uchyate mamcha yovyabhicharena bhakti yogena sevate sagunan samatityaitan brahma bhoyaya kalpate brahmano hi pratishtaham amritasya vyayasvacha shashvatasya cha dharmasya sukhasya ekantikasya cha Hari Om Tat Sat Iti Srimad Bhagavad Gita Supanishatsu Brahma Vidyayam Yoga Shastre Shri Krishna Arjuna Samvade Gunatraya Vibhaga Yogo Nama Chaturdashodhyayaha